अखण्डमण्डलाकारं व्याप्तं येनाचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवै नमः अज्ञानातिमिरान्धस्य ज्ञानाञ्जनाशलाकय चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवै नमः गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा गुरुर्साक्षात् परब्रह्मा तस्मै श्रीगुरुवे नमः तावारं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः बाबाजी व्याप्ति यत् सर्वं त्रैलोक्यं सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः सर्वश्रुतिशिरोरत्ना वीराजितापदम्भुज वेदान्तम्भुज सूर्योयस्तस्मै श्रीगुरुवे नमः चैतन्यः शाश्वत शान्तो व्योमातीतो निरञ्जनः बिन्दुनादाकलातीतस्तस्मै श्रीगुरुवे नमः ज्ञानाशक्ति समारुद्र तत्त्वमालाभिभूषितः भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरुवे नमः अनेकजन्मसम्प्राप्त कर्मभान्धविदायिनि आत्मज्ञानपराधीन तस्मै श्रीगुरुवे नमः शोषानं भवसिन्धु च ज्ञापानं सरसम्पद गुरुपदोदकं साम्यक् तस्मै श्रीगुरुवे नमः न गुरुरधिकं तत्त्वं न गुरुरधिकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरुवे नमः मनाथा श्रीजगन्नाथा मद्गुरु श्रीजगद्गुरु मदात्मां सर्वभूतात्मा तस्मै श्रीगुरुवे नमः गुरुरादिरनाधीश्च गुरु परमदेवतं गुरुपरतरं नास्ति तस्मै श्रीगुरुवे नमः त्वमेव माता च पिता त्वमेव त्वमेव बन्धुतशका त्वमेव त्वमेव विद्यात्रविदं त्वमेव त्वमेव सर्वं मम देवदेव त्वमेव सर्वं मम देवदेव